ओम नमो भगवते वासुदेवाय। अथ सप्तमोऽध्यायः। सूत उवाच, अथर्ववित् सुमन्तुश्च शिष्यमध्यापयत्स्वकाम् संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान्। शौक्लाय निर्ब्रह्मबलिर्मोदोषः पिप्पलायनिः। वेददर्शस्य शिष्यास्ते पथ्यशिष्यानथो शृणु। कुमुदः शुनको ब्रह्मन् जाजलिश्चाप्यथर्ववित्, बभ्रूशिष्योऽथाङ्गिरसः सैन्धवायन एव च। अधीयेतां संहिते द्वे सावर्ण्याद्यास्तथा परे, नक्षत्रकल्पः शान्तिश्च कश्यपाङ्गिरसादयः। एते अथर्वणाचार्याः शृणु पौराणिकान् मुने, त्रय्यारुणिः कश्यपश्च सावर्णिरकृतव्रणः। वैशम्पायनहारितौ षड्वै पौराणिका इमे। अधीयन्तव्यासशिष्यात् संहितां मत्पितुर्मुखात्, एकैकामहमेतेषां शिष्यः सर्वासमध्यगाम्। कश्यपोऽहं च सावर्णी रामशिष्यो कृतव्रणः। अधीमहि व्यासशिष्यात् चतस्रो मूलसंहिताः। पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिर्निरूपितम्, शृणुस्वबुद्धिमाश्रित्य वेदशास्त्रानुसारतः। सर्गोऽस्याथ विसर्गस्य वृत्तिरक्षान्तराणि च, वंशो वंशानुचरितं संस्थाहेतुरपाश्रयः। दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदुः। केचित् पञ्चविधं ब्रह्मन् महदल्पव्यवस्थया, अव्याकृतगुणक्षोभान् महतस्त्रिवृतोऽहमः। भूतमात्रेन्द्रियार्थानां सम्भवः सर्ग उच्यते। पुरुषानुगृहीतानामेतेषां वासनामयः। विसर्गोऽयं समाहारो बीजात् बीजं चराचरम्। वृत्तिर्भूतानि भूतानां चराणामचराणि च, कृता स्वेन नृणां तत्र कामाच्चोदनयापि वा। रक्षाच्युतावतारेः विश्वस्यानुयुगे युगे, तिर्यङ्मर्त्यर्षिदेवेषु हन्यन्ते यैस्त्रयी द्विषः। मन्वन्तरं मनुर्देवा मनुपुत्रा सुरेश्वरः। ऋषयोऽंशावतारश्च हरे षड्विधमुच्यते। राज्ञां ब्रह्मप्रसूतानां वंशस्त्रैकालिकोऽन्वयः। वंशानुचरितं तेषां वृत्तं वंशधराश्च ये। नैमित्तिकः प्राकृतिको नित्यात्यन्तिको लयः। संस्थेति कविभिः प्रोक्ता चतुर्धास्य स्वभावतः। हेतुर्जीवोऽस्य सर्गादेरविद्याकर्मकारकः। यं चानुशैनं प्राहुरव्याकृतमुतापरे। व्यतिरेकान्वयो यस्य जाग्रत्स्वप्नसुषुप्तिषु, मायामयेषु तद्ब्रह्म जीववृत्तिष्वपाश्रयः। पदार्थेषु यथा द्रव्यं सन्मात्रं रूपनामसु, बीजादिपञ्चतान्तासु यवस्थासु युतायुतम्। विरमेत यदा चित्तं हित्वा वृत्तित्रयं स्वयं, योगेन वा तदात्मानं वेदेहाया निवर्तते। एवं लक्षणलक्ष्याणि पुराणानि पुराविदः। मुनयोऽष्टादश प्राहुः क्षुल्लकानि महान्ति च। ब्रह्मं पाद्मं वैष्णवं च शैवं लैङ्गं स गारुडम्। नारदीयं भागवतमाग्नेयं स्कान्दसङ्गितम्। भविष्यं ब्रह्म वैवर्तं मार्कण्डेयं स वामनम्। वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यमिति त्रिषट्। ब्रह्मन्निदं समाख्यातं शाखाप्रणयनं मुनेः। शिष्यशिष्यप्रशिष्याणां ब्रह्मतेजो विवर्धनम्। ओम स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे सप्तमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां, यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।